तस्य बुध कौशिक ऋषिः श्री सीता रामचंद्रो देवता अनुष्टुप् छन्दः सीता शक्तिः श्रीमत् हनुमान कीलकम् श्री रामचंद्र प्रीत्यर्थे जपे विनियोगः अथ ध्यानम्। ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं पीतं वासोवसानम् नवकमलकलस्पर्धिनेत्रं प्रसन्नं वामाङ्कारूढसीता मुखकमलमिलल्लोचनन्नीरदाभं नानालङ्कारदीप्तं दधतमुरुजटामण्डलं रामचन्द्रम्। रघुनाथस्य शतकोटि प्रविस्तरम् एकैकमक्षरं पुंसा महापातकनाशनम् ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनं जानकी लक्ष्मणोपेतं जटामुकुटमण्डितं सासितूर्णधनुर्बाणपाणि पञ्चरान्तकम् स्वलीलया जगत्रातुम् आविर्भूतमजौ विभुम् राम रक्षां पठेत् प्राज्ञः पापग्नीं सर्वकामदां शिरो मे राघवः पातु भालं दशरथात्मजः कौसल्येयो दृशौ पातु विश्वामित्रप्रियश्रुति प्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः स्कन्धौ दिव्यायुधं पातु भुजौ भग्नेशकार्मुकः करौ सीतापतिः पातु हृदयं जामदग्न्यचित् मध्यं पातु करध्वंसी नाभिं जाम्बवदाश्रयः सुग्रीवेश कटी पातु सक्तिनी हनुमत्प्रभुः ऊरु रघुत्तमः पातु रक्षक कुलविनाशकृत् जानुनी सेतुकृत् पातु जङ्घे दशमुखान्तकः पादौ विभीषण श्रीदः पातु रामोऽखिलं वपुः केतां राम बलोपेतां रक्षां यः सुकृती पठे सचिरायु सुखी पुत्री विजयी विनयी भवे पाताल भूतलौ व्योम चारिणश्चत्मचारिणः न द्रष्टुमपि शक्तास्ते रक्षितं राम नामभि रामेति राम भद्रेति रामचन्द्रेति वास्मरन् नरो न लिप्यते पापै मुक्तिं मुक्तिं च विन्दति जगच्चैत्रैकमन्त्रेण राम नाम्नाभिरक्षितम् यः कण्ठे धारयेत् तस्य करस्थाः सर्वसिद्धयः वज्रपञ्जरनामेदं यो रामकवचं स्मरे अव्याहताज्ञः सर्वत्र लभते जयमङ्गलम् आदिष्टवान् यथा स्वप्ने राम रक्षामि मां हरः तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः आरामकल्पवृक्षाणां विराम सकलापदाम् अभिरामस्त्रिलोकानां रामः श्रीमान् सदः प्रभुः तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मतां रक्षत्कुलनिहन्तारौ त्रायेतान्नोरभूत्तमौ आत्तसज्जधनुषा विशुस्पृशौ अक्षयाशुगनिषङ्गसङ्गिनौ रक्षणाय मम रामलक्ष्मणौ अग्रतः पथि सदैव गच्छताम् सन्नद्ध कवची खड्गे चापपाणधरो युवा गच्छन् मनोरथोऽस्माकम् रामः पातु स लक्ष्मणः रामो दाशरथिः शूरो लक्ष्मणानुचरो बलि काकुत्स्थः पुरुषः पूर्ण कौसल्येयो पुराणपुरुषोत्तमः जानकीवल्लभः श्रीमान् अप्रमेय पराक्रमः इत्येतानि जपे नित्यम् मद्भक्तः श्रद्धयान्वितः अश्वमेधादिकम् पुण्यम् सम्प्राप्नोति न संशयः रामम् दूर्वादलः श्यामम् पद्माक्षम् पीतवाससम् स्तुवन्ति नामभिर्दिव्यै न ते संसारिणो नरः रामम् लक्ष्मणपूर्वजम् रघुवरम् सीतापतिम् सुन्दरम् काकुत्स्थम् करुणार्णवम् गुणनिधिम् विप्रप्रियम् धार्मिकम् राजेन्द्रम् सत्यसन्धम् दशरथतनयम् श्यामलम् शान्तमूर्तिम् वन्दे लोकाभिरामम् रघुकुलतिलकम् राघवम् रावणारिम् रामाय रामभद्राय रामचन्द्राय वेधसे रघुनाथाय नाथाय सीताय पतये नमः श्रीराम राम रघुनन्दन राम राम श्रीराम राम भरताग्रज राम राम श्रीराम राम रणकर्कश राम राम श्रीराम राम शरणं भव राम राम श्रीरामचन्द्र चरणौ मनसा स्मरामि श्रीरामचन्द्र चरणौ वचसा गृह्णामि श्रीरामचन्द्र चरणौ शिरसा नमामि श्रीरामचन्द्र चरणौ शरणं प्रपद्ये माता रामो मत्पिता रामचन्द्र स्वामी रामो मत्सखा रामचन्द्र सर्वस्वं मे रामचन्द्रो दयालु नान्यं जाने नैव जाने न जाने दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा पुरतो मारुतिर्यस्य तौ वन्दे रघुनन्दनम् लोकाभिरामम् रणरङ्गधीरम् राजीवनेत्रम् रघुवंशनाथम् कारुण्यरूपम् करुणाकरन्तम् श्रीरामचन्द्रम् शरणम् प्रपद्ये मनोजवम् मारुततुल्यवेगम् जितेन्द्रियम् बुद्धिमताम् वरिष्ठम् वातात्मजम् वानरयूथमुख्यम् श्रीरामदूतम् शरणम् प्रपद्ये पूजन्तम् राम रामेति मधुरम् मधुराक्षरम् आरुह्य कविता शाखाम् वन्दे वाल्मीकिकोकिलम् आपदामपहर्तारम् सुख संपदां तर्जनं यमदूतानां राम रामेति गर्जनं रामो राजमणि सदा विजयते रामं रमेशं भजे रामेणाभिहता निशाचर चमु रामाय तस्मै नमः रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहम् रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर राम रामेति रामेति रमेति